सहस्रयोगोद्भव भाव भागिनी सहस्र संख्यायुध धारिणी नमः यन्मंडलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपं दारिद्र्य दुःख क्षय कारणं च पुनातु मां तत्सवितुर्वरेण्यम् यन्मण्डलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदं तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपं समस्ततेजोमय दिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम् यन्मण्डलं गूढमति प्रबोधं धर्मस्य वृद्धिं कुरुते जनानां यत्सर्व पापक्षय कारणं च पुनातु मां तत्सवितुर्वरेण्यम् यन्मण्डलं व्याधिविनाशदक्षम् यत्रोक्यजुःसामसु संप्रगीतं प्रकाशितं येन च भूर्भुवस्वः पुनातु मां तत्सवितुर्वरेण्यम् यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसङ्घाः यद्योगिनो योगजुषां च सङ्घाः पुनातु मां तत्सवितुर्वरेण्यम् यन्मण्डलं सर्वजनैश्च पूजितं ज्योतिश्च कुर्यादिहमत्यलोके यत्कालकालाद्यमना चतुर्मुखाख्यं यदक्षरं पापहरं जनानां यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् यन्मण्डलं विश्वसृजं प्रसिद्धम् उत्पत्तिरक्ष प्रलय प्रगल्भम् यस्मिन् जगत् संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् यन्मण्डलं सर्वगतस्य विष्णोः आत्मा परं धाम विशुद्धतत् सूक्ष्मान्तरैर्योगपथानुगम्यम् पुनातु मां तत्सवितुर्वरेण्यम् यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् तत्सर्ववेद्यम् सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् सूर्यमण्डलसुस्तोत्रं यः पठेत् सततं नरः സർവ പാപ വിശുദ്ധാത്മാ സൂര്യലോകേ മഹീയതേ ഇതി ശ്രീ ഭവിഷ്യോത്തര പുരാണേ ശ്രീകൃഷ്ണാർജുന സംവാദേ സൂര്യമണ്ഡല